इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका सुषमा कुमारी। मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य द्विदिवसीय यात्रायां कुवैत देशं सम्प्राप्तवान्। तेनोक्तं यत् कुवैत देशेन सह भारतस्य सम्बन्धाः ऐतिहासिकाः महत्वपूर्णाः च वर्तन्ते। गृहमन्त्री अमितशाहः त्रिपुरायाम् अगरतलायां पूर्वोत्तर परिषदः द्विसप्ततितमीयोपवेशनस्य अध्यक्षतां विदधाति। भारतदेशेन विनिर्माणक्षेत्रस्य विस्तारकरणदिशि एशियाई विकास बैंकेन साकं सार्धत्रिशत् मिलियन डॉलर मित ऋण सन्धिपत्रं हस्ताक्षरितम्। चिन्ता हिंसा सदृश वैश्विक आह्वानानाम् अपाकर्तुम् अद्य प्रथम विश्व ध्यान दिवसः परिपाल्यते। अपि च ऋतु विभागेन आगामि पञ्च दिवसं यावत् जम्मू कश्मीर हिमाचल प्रदेशे च भीषण शीतलहर्याः अनुमानः अभिव्यक्तः। प्रधानमन्त्री नरेन्द्र मोदी द्विदिवसात्मकीय स्वीय आधिकारिक यात्रायां कुवैत नगरं सम्प्राप्तवान्। एषा प्रधानमन्त्रिणः यात्रा कुवैत देशस्य अमीर शेख मेशल अल अहमद अल जावेर अल सबह वर्यस्य निमन्त्रणे वर्तते। प्रधानमन्त्रिणोक्तं यत् असौ कुवैत नगरे भारतीय समुदायस्य जनैः साकं मेलितुं समुत्सुको विद्यते। ये जनाः उभयोः देशयोः मध्ये सम्बन्धान् प्रगाढं कर्तुं प्रयासरताः आसन् तैः सह मेलितुम् असौ समुत्सुको वर्तते इति प्रधानमन्त्रिणा प्रतिपादितम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना खातिक्षेत्रस्य प्रमुखखेलप्रतियोगिता अरेबियन गल्फ कप इत्यस्य उद्घाटनाय आमन्त्रणे कुवैत प्रशासनं प्रति आभारः प्रकटितः। श्रीमोदिनोक्तं यत् तस्याः यात्रायाः अस्याः भारत कुवैत देशाभ्यां मैत्रीपूर्ण सम्बन्धाः अधिकाः दृढीभूताः भविष्यन्ति। गृहमन्त्रिणा अमितशाहेनोक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना पूर्वोत्तरीय क्षेत्रं विश्वस्य केन्द्रं विनिर्मितम्। अगरतलायाम् अद्य पूर्वोत्तर परिषदः द्विसप्ततितमीये पूर्णसत्रं सम्बोधयता तेनोक्तं यत् विगतानि दशवर्षाणि पूर्वोत्तरीय क्षेत्राणां कृते महति महत्वपूर्णानि आसन्। तेन भणितं यत् केन्द्रसर्वकारः निवेशकान् पूर्वोत्तरक्षेत्रेषु विनिवेशाय प्रोत्साहयति।
केंद्र में जब जब भारतीय जनता पार्टी की सरकार आई, नॉर्थ ईस्ट को प्रायोरिटी देने की शुरुआत करी। प्रधानमंत्री स्वयं 65 बार आए हैं और हर बार कोई न कोई तोहफा नॉर्थ ईस्ट के लिए लेकर आए। भारतीय जनता पार्टी की मोदी सरकार ने पूर्वोत्तर की संस्कृति को भी संरक्षित करने के लिए कोई कसर नहीं छोड़ी।
श्री शाहेनोक्तं यत् पूर्वं पूर्वोत्तरस्य केवलं चर्चा एव प्रचलति स्म। अधुना प्रधानमन्त्रिणा क्षेत्रस्य अस्य विकासाय निष्पक्षतया बहवः प्रयासाः विहिताः। एतेन क्षेत्राणि एतानि महत्वपूर्णानि सञ्जातानि। केन्द्रीय गृहमन्त्रिणोक्तं यत् आगामिषु दिवसेषु पूर्वोत्तरस्य सर्वाणि राज्यानि समृद्धानि भविष्यन्ति। केन्द्रस्य एडीबी इत्यस्य एशियाई विकास बैंकस्य च मध्ये सार्धत्रिशत् मिलियन डॉलर मितस्य नीति आधारित ऋण सहभागित्वे हस्ताक्षरं जातम्। इदं ऋणं बहुविधस्य एकीकृत पारिस्थितिकी तन्त्रस्य स्माइल इत्यस्य सुदृढीकरणस्य द्वितीयस्य उपकार्यक्रमस्य भागः अस्ति। कार्यक्रमे विनिर्माणं वर्धयितुम् आपूर्ति श्रृंखलायाः शिथिलता च संशोधनम् उद्दिश्य उपकार्यक्रमद्वयं समाविशितमस्ति। वाणिज्य उद्योग मन्त्रालयेन विज्ञप्तौ उक्तं यत् भारतस्य रसदक्षेत्रस्य विकासः तस्य विनिर्माणक्षेत्रस्य प्रतिस्पर्धां विवर्धयितुं महत्वपूर्णः अस्ति। मन्त्रालयेन एतदपि उक्तं यत् भारत एडीबी इत्येतयोः सहकार्यं रसदक्षेत्रे विकासं नवीनतां च पोषयितुं सहभागप्रतिबद्धतां प्रतिबिम्बयति। भारतस्य व्यापक आर्थिक विकास लक्ष्याणां समर्थनं च करोति। जम्मू कश्मीरे चत्वारिंशत् दिवसानां शीत ऋतोः चिल्लई कला प्रारब्धं जातम्। विगतरात्रौ कश्मीर उपत्यकायां सर्वेषु क्षेत्रेषु भीषण शीत प्रकोपः आकलितः। अखिल कश्मीर क्षेत्रे रात्रौ तापमानः अत्यधिकः न्यूनः आकलितः। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशेऽपि उपलब्धो भविष्यति। अद्य प्रथमः विश्व ध्यान दिवसः आचर्यते, यो हि राष्ट्रेषु कल्याणं शान्तिं मनः संतोषं च प्रवर्धयितुं वैश्विक परिकल्पनास्ति। आयोजनस्य विषयः आसीत् वैश्विक शान्तये सौहार्दाय च ध्यानम् इति। विश्वे सर्वत्र भारतीय संस्थानैः मानसिक शारीरिक कल्याणाय ध्यानस्य परिवर्तनकारी शक्तेः उपरि बलं दत्त्वा प्रथमः विश्व ध्यान दिवसः आचर्यते। संयुक्त राष्ट्र संघेन भारते ध्यानम् इति कार्यक्रमस्य आतिथ्यं कृतं, वैश्विक शान्ति सद्भावाय च ध्यानम् इति। संयुक्त राष्ट्र संघस्य न्यास परिषदि भारतस्य स्थायी प्रतिनिधिना पी हरीशेन ध्यानस्य प्राचीन भारतीय परम्परायाः विषये प्रकाशितम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य देशस्य नागरिकान् ध्यानं दैनिक जीवने सम्मिलितुम् आह्वानमपि कृतम्। सामाजिक अन्तर्जालीय सन्देशे श्रीमोदी उक्तवान् यत् ध्यानं स्वजीवने अपि च अस्माकं समाजे गृहे च शान्तिं सौहार्दं च आनेतुं सशक्तः उपायः अस्ति इति। जीएसटी परिषदः पञ्चपञ्चाशत्तमीयोपवेशनं राजस्थानस्य जैसलमेरे जातम्। वित्तमन्त्री निर्मला सीतारामणः उपवेशनस्य अस्य अध्यक्षतां विधितम्। उपवेशनेऽस्मिन् गोवा, हरियाणा, जम्मू कश्मीर, मेघालय, ओडिशा राज्यानां मुख्यमन्त्रिणः, अरुणाचलप्रदेश, मध्यप्रदेश, तेलंगाना राज्यानां उपमुख्यमन्त्रिणः च भागं निर्वहन्ति। एतदतिरिच्य राज्य केन्द्र शासित प्रदेशानां वित्तमन्त्रिणः अपि समाविष्टः आसन्। पर्यावरण वन ऋतु परिवर्तन मन्त्रिणा भूपेन्द्र यादवेन अद्य उत्तराखण्डस्य राजधान्यां देहरादूने वन विवरण त्रयोविंशत्युत्तर द्विसहस्रतम इत्यस्य विमोचनं विहितम्। विवरणमिदं प्रत्येकस्मिन् वर्षद्वयाभ्यन्तरे भारतीय वन सर्वेक्षण विभागेन प्रकाश्यते, अपि च देशस्य वन वृक्ष संसाधनानाम् आकलनं प्रस्तौति। विवरणानुसारेण भारतस्य आहत्य वृक्षावरण क्षेत्रम् 8,27,750 वर्ग किलोमीटर इति वर्तते, यः देशस्य भौगोलिक क्षेत्रस्य 25% विद्यते। विगत एकविंशत्युत्तर द्विसहस्रतम वर्षस्य आकलन तुलनायां वनक्षेत्रं 45.14% वर्ग किलोमीटर इति विवर्धितम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना गुजरातस्य कच्छस्य धोरडो इत्यस्य आयोजितस्य रणोत्सवस्य प्रशंसा कृता। एकस्मिन् सामाजिक अन्तर्जालीय सन्देशे प्रधानमन्त्रिणा उल्लिखितं यत् अयम् उत्सवः कच्छस्य परम्परायाः, संस्कृतेः, धरोहरस्य च प्रतीकः इति, यः सर्वान् मोहयति। असौ अवदत् यत् महोत्सवः अद्भुतस्य शिल्पविपण्यः, सांस्कृतिक कार्यक्रमस्य, खाद्यपरम्परायाः च माध्यमेन आगन्तुकानाम् आजीवनं यावत् अविस्मरणीयम् अनुभवं प्रददाति। प्रधानमन्त्रिणा जनैः आग्रहः कृतः यत् ते परिवारेण सह जीवने एकवारम् अवश्यमेव रणोत्सवस्य दर्शनं कुर्वन्तु इति। ऋतु विभागेन आगामिषु पञ्चदिवसेषु जम्मू कश्मीर, हिमाचल प्रदेश च शीत प्रकोपः आशंका प्रकटिता। पंजाब राजस्थान राज्ययोः अपि सोमवासरं यावत् स्थितिरेषा यथावत् सन्धारयिष्यति। विश्व स्वास्थ्य संघटनेन WHO इत्यनेन प्रतिपादितं यत् भारतदेशेन मलेरिया रोगस्य प्रकरणेषु न्यूनता अधिगता, एषा एका उल्लेखनीया प्रगतिः अपि विद्यते। प्रवर्तमान वर्षस्य स्वास्थ्य संघटनस्य विश्व मलेरिया विवरणे इदं स्पष्टरूपेण अभिव्यक्तमस्ति इति वार्ताः।